सर्वेभ्यो नमः, स्वागतं. गतवर्गे वयं धातुगणान् वयं दृष्टवन्तः, दशधातुगणाः वयं पूरितवन्तः. अद्य वयं किञ्चित् अभ्यासं कुर्मः. अहं धातुः अपि क्रियापदं ददामि, भवन्तः गणः किं भवितुमर्हति इति वदन्तु. अस्तु, तस्य पूर्वं एकवारं पुनस्मरणं कुर्मः. अस्तु, इदानीं प्रथमः गणः अस्ति भ्वादिगणः. अत्र विकर्णप्रत्ययः किम् अस्ति? द्वितीयः गणः अदादिः. गणः किमस्ति, विकर्णप्रत्ययः किमस्ति?
विकर्णप्रत्ययः नास्ति, द्वित्वं भवति.
न, जुहूत्यादिगणे द्वित्वं. अस्तु, चतुर्थः गणः अस्ति दिवादिः. अत्र विकर्णप्रत्ययः अस्ति किम्? यकारः. अनन्तरं स्वादिः. विकर्णप्रत्ययः किमस्ति?
विकर्णप्रत्ययः नो अस्ति.
सुदादिगणस्य अस्ति अ. सप्तमः अस्ति रुदादिः. अत्र किम् अस्ति विकर्णप्रत्ययः? न. अष्टमः गणः नास्तिः. विकर्णप्रत्ययः अस्ति ओ. व्यादिः गणः अस्ति न. अपि दशमः गणः चुरादिः अय इति. अस्तु, इदानीं पुनस्मरणं भवन्तः अवगच्छन्ति किल? इदानीम् एतद् दृष्ट्वा एव वदन्तु. अहं धातुः अपि क्रियापदम् अत्र लिखामि, भवन्तः गणम् अपि गणस्य नाम वदन्तु. अस्तु, दृश्यते किल?
क्रियापदं गर्जति.
गर्जति. अस्तु, गणः अपि गणस्य नाम वदन्तु.
भवादिगणः.
भवादिगणः
प्रथमः.
प्रथमः. वादिः. अस्तु, अनन्तरं शुच्. शोचति.
ओकारः अस्ति. तनादिगणः.
आम्, ओकारः अस्ति.
उपादिगणः.
उपादिगणः.
उपादिगणः गुणः भवति. आप्रविकरणप्रत्ययः गुणः भवति.
अस्तु, अनन्तरं तिल्. तिलति. गणः किम्?
सुदादिगणः.
आम्, षष्ठः अस्ति. सुदादिः अस्तु अनन्तरं चिनोति
तनादिगणः
चिनोति न भगिनि भगिनि चिनोति इति अत्र एकनिमिषः टि इति धातुः तत्र विकरणप्रत्ययः अस्ति योगः ति किल चि अपि ति मध्ये किम् अस्ति
नो अस्ति
नो तस्य विकरणप्रत्ययः अस्ति नो
स्वादिगणः
स्वादिगणः
आम् पञ्चमः गणः स्वादिः अस्तु इदानीं
शुष्यति चुरादिगणः
आम् समीचीनम्
दशमगणः
चुरादिः अस्ति दश समीचीनम् अस्तु अनन्तरं दिश् दिशति
दिशति शकारम् सुदादिगणः एव
आम् सुदादिः अस्तु अनन्तरं विल्
विल् वेलयति अय अस्ति चुरादिगणः
आम् चुरादिगणः
दशमगणः
आम् अस्तु
अस्ति सनादिगणः
मी नाति इति सनादिगणः न भगिनि
मी न क्रियादि
तस्य विच्छेदनं कथं कुर्मः भगिनि
योगः न योगः ति
ओ ओके
देर् इस् नो ट्रान्स्फर्मेशन्
ओके ओके ऐ एम् गेटिङ्ग् मिक्स्ड् अप् दट् आल् द टैम् ऐ टेन्ड् टु स्प्लिट् दट् एस् अ
वन्स् शो द गणस् भगिनि This is Divadi and then Swadi. In sixties, Tudadi.
एकवारं पठन्तु सर्वे भ्वादिगणस्य विकरणप्रत्ययः अस्ति
भ्वादिगणः विकरणप्रत्ययः आ भवति अदादिविकरणप्रत्यय नास्ति जुहोत्यादिगणः अपि विकरणप्रत्यय नास्ति द्वित्वं भवति द्वित्वम् दिवादिगणः विकरणप्रत्यय या भवति स्वादि नो भवति तुदादि आ भवति रुधादिविकरणप्रत्यय न भवति तनादिगणः अष्टमगणः विकरणप्रत्ययः ओ भवति नवमगणः क्रियादिगणः विकरणप्रत्ययः न भवति दशमगणः चुरादिगणः विकरणप्रत्यय अय भवति
आम् समीचीनं राधा भगिनी भवती एकवारं पठतु
आं भगिनी भुवादिगणः विकरणप्रत्यय अस्ति द्वितीय अदादिगणः विकरणप्रत्यय नास्ति तृतीय जुह्योत्यादिः अपि
जुहोत्यादिः
जुहोत्यादिः विकरणप्रत्यय नास्ति द्वित्वम् अस्ति चतुर्थः दिवादिः गणः विकरणप्रत्यय य अस्ति पञ्चम स्वादिः गणः विकरणप्रत्यय नो अस्ति षष्ठः गणः तुधादिः षष्ठः गणः तुधादिः विकरणप्रत्यय अ अस्ति सप्तमगणः रुदादिः विकरणप्रत्यय न अस्ति अष्टमगणः तनादिः विकरणप्रत्यय ओ अस्ति नवमगणः क्रियादिः विकरणप्रत्यय न अस्ति दशमगणः सुरादिः विकरणप्रत्यय अय अस्ति
समीचीनम् अस्तु इदानीम् अत्र क्रियादिगणः नवमः गणः अस्तु अनन्तरं मीनाति अस्तु कृष् धातुः
कृष्यति
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 अस्तु गणः किं
सुदादि वा
अष्टमगणः
अष्टमगणः भगिनि
सुदादिः
सारि सारि
तनादिः अष्टमः गणः तुदादिः षष्ठः गणः अस्तु अस्तु भ्वादिः अदादिः जुहोत्यादिः दिवादिः स्वादिः तुदादिः रुदादिः तनादिः क्र्यादिः चुरादिः अस्तु अस्तु एकवारं कृषति इत्यस्य रूपं वदन्तु
कृषति कृषतः कृषन्ति कृषति कृषतः कृषत कृषामि कृषावः कृषामः
समीचीनम् इदानीं भी धातुः बिभेति अस्तु गणः किं
बिभेति
बिभेति
सरलः अस्ति एतत्
द्विवादिगणः अदादिगणः अस्ति वा
न
ये ये अस्ति भुवादिगणः
जुहोत्यादिः
जुहोत्यादिः
द्वित्वमस्ति तृतीयगणः
द्वित्वं कुत्र भवति
ब एव भ महोदय ह्रस्व भ एण्ड् दीर्घ
भिभेति लैक् ददाति यः बिभेति
ओ ओके
दिस् इस् आल्सो देयर् लैक् ददाति
ओके 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 ओके
अस्तु अनन्तरं
हिंसति हिंसति
हिनस्ति
हिनस्ति रुदादिगणः वा
रुदादिः सप्तमः गणः अस्तु
अचुरादिगणः भगिनि अय अस्ति तत्र
दूरादिगणः नास्ति
नास्ति वा
भगिनि अस्ति न न न अत्र पश्यतु वकार योगः य योगः ओ अय अस्ति
अय अस्ति चुरादिगणः
अय नास्ति अत्र अय नास्ति
या एव भवति दिवादिगणः
दिवादिगणः
ईव् योगः य योगः
एव् योगः य योगः इति अस्ति तत्र अय इति नास्ति
द्विवादिगणः
द्विवादिगणः द्विवादे अस्तु भू भूनाति
अस्ति तनादिगणः
न
इद् प्लस् ओ प्लस् इन् प्लस् आ प्लस् ति I'm getting a bagini, I don't know.
So, Unati.
Id plus U plus In plus A plus T.
Asso, ekaram. अत्र धू इति अस्ति किल एतद् एवम् इति चिन्तयामः अस्तु धू इति अस्ति परन्तु धू इति चिन्तयामः अस्तु धू इति नास्ति ति इति गच्छति मध्ये किम् अस्ति
न
अस्तु न विकर्णप्रत्ययः कस्य अस्ति
Bhagini, when you please add one more column with the vichedanam so
vikarna pratyaha
or no, Bhagini, yes, how yes, you're splitting yes. Because I think I'm making lot of mistakes over there
astu ek nimsha astu we'll do it from the beginning astu garjati
vayadi ganaha asti va
ek nimsha mohdya ऋज् अत्र अहं धातुः एव अहं लिखामि अस्तु ऋज् योगः अ योगः ति अत्र किं भवति सुच्
योगः योगः ति
योगः अ योगः सारि
इल्
योगः अ योगः ति
योगः ति
सि योगः नो योगः ति योगः य योगः
ति दिश् योगः अयोगः ति विल् योगः य योगः ति
अय योगः
ओ सारि
मी योगः न योगः
न योगः ति
ऋष्
योगः अयोगः
जुहोत्यादिकणः विकरणप्रत्ययः नास्ति. न रुदादिगणस्य किम् अस्ति? न योगः. दिवादिगणस्य किं भवति?
चतुर्थः दिवादिगणः
या
इदानीं तु योगः न योगः ति.
ओके
अस्तु, अत्र किं भवति?
न इत्युक्ते क्रियादिगणः.
क्रयादिगणः.
क्रयादिगणः, सारि.
क्रियादिगणः. क्रियादिः अस्तु. नूनति.
शुद्ध प्लस इन प्लस ति.
अत्र किञ्चित् कठिनः भवति. अस्तु, श्रुद् योगः न योगः ति.
सो न इस् रुदादिगणः वा?
आम् गातिः सप्तमः. अस्तु, अनन्तरं तन् शनोति.
तन् प्लस् ओ प्लस् ति. ओ अस्ति चेत् तनादिगणः. अष्टमगणः.
अष्टमः. अस्तु, अनन्तरं
दर्शयति
पृशति.
स्पृशति. स्पृश् स्पृश् प्लस् अ प्लस् ति. स्पृशति
पृशति. आम्
तुदादिगणः.
अस्तु, अनन्तरं
तर्क प्लस् अय प्लस् ति.
तर्के अति या दिवादि
अय अति चुरादिगणः.
न, अय अय विकरणप्रस्तात. चुरादि दशमगणः.
अस्तु, इदानीं तु भूनोति
तु नो ति दुनोति नो इस स्वादिगणः पञ्चम
अनन्तरं
तर्पयति तर्कयति अर्थं किं भगिनि
तर्कयति एकनिमिष अहं लिखामि
आर्ग्यू नो तर्कं करोति
टु स्पीक् स्पीक् अनन्तरं टु बिल्ड् अनन्तरम् इदानीं लिखामि भारति
प्लस् हौ डु वि डू दिस् भगिनि
तर्कयति दट् इस् टु स्पीक् आर् टु argue or to explain or to hold
that's how we use it normally na when we speak tarkayati
debate karoti va
ha I think
tarkam is vadam ya yeah, vadam vadam vi vadam
parati
prapas
is a भुवादिगणः
प्लस् अ योगः अस्ति भुवादिः
प्रथमग्रहः
एकनिमिषः अस्तु उग्रे अनन्तरं याति भवन्तः वदन्तु याति इति किं भवति
या योगः अति द्वित्वं विकरणप्रत्यये नास्ति
अदादिगणः भवति
द्वितीयः गणः अनन्तरं नि नयति
इन् प्लस् नि
नयति नयति
अधिगणः वा भगिनि
नयति इति
प्लस् अयाः इट् इस् ऐदर् भुवादि आर्
दादा भगिनी भवती किम् उक्तवती
दिवादिगणः इति
न
E plus T. E
plus R. Oh, akaram. Tudadi ganaha va? No, it can't be Tudadi. Bhavadi ganaha. Bhavadi ganaha va?
Satra, punaha bhavati kila. E iti yakaraha bhavati nayati.
E plus A.
E plus A
plus A is ya. E plus A is ya. A plus E is A. Okay, we have to.
Atim.
Gana plus E shaha is Ganeshaha.
E plus A is ya. So it should Vadi Ganahan.
भुवादिगणः एव प्रथमगणः एव
अस्तु अनन्तरं
नयति अप्टेन्
टु ब्रिङ्ग्
Yeah. Yeru Viryati.
That is also Vadigana Gini. Juru O plus
Gunam.
No.
Juru
Juru plus Yo plus Divadigana.
Divadigana. Divadigana second birthday.
Dhru plus Y plus T.
Plus T.
Vikarana Pratyaya is Y.
Vikarana Pratyaya.
Chaturta.
Chaturta. Tanaha. Anantaram. Mayate na. Na, na, na. Manyate. Samyat. Manyate. एकनिमिषः
एकनिमिषः
मायते एव क्षम्यतां
मा प्लस् य प्लस्
ए सरल दिवादिगणः
गणः
चतुर्थः गणः
एकनिमिषः 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 इदानीं दृश्यते वा
दृश्यते
स्क्रीन् शेरिङ्ग् पास्ड्
पुनः पुनः एकवारम् एकनिमिषः अस्तु इदानीम्
आं भगिनि
क्षम्यताम् अस्तु मा धातुः अस्तु अनन्तरं भू पुनाति
त्रयादिगणः
नवमः क्रियादिगणः अत्र किं भवति योगः
नाति
अस्तु अनन्तरं हेन्
dinati id did bit plus na please bit plus a plus
andame chintuki iti ni pasu bhete
bid bhinati bid yogah rudha divanah
ha rudha divanah na
ho saptama rudha divanah
samichinam so there is Rati that is Ra that is Rati
no Vikarana Pratyaya अदादिगणः वा
अनन्तरं
वाजयति वा
आं वाजयति
चुरादिगणः अय पाच प्लस अय
मन मन्यते
मन प्लस य प्लस ते सो यकार दिवादिगण है
मन योग है य योग से दिवादि है अस्तु
जयते अकारं भुआदिगणः
भुआदिगणः प्रथमगणः
समीचीनम्
किलिश्नाति
किलिश्नाति
व्हाट इज द मीनिंग ऑफ दैट किलिश्नाति ओके किलिश क्लिश प्लस
क्लिश नाति ना विकरण प्रत्यय अस्ति ना क्रयादि
प्लस नवम गण क्रयादि गण आम नवम गण
विकरण प्रत्यय किं भवति
ना
ना
नावा नावा भगिनी
ना दीर्घम
ना 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 नास्ति चेत् रुदादि
रुदादि अनन्तरं वरति
ह्वर्ति ह्वर्ति भुवादिगणः
ह्वरति
ह्वरति
कुरु
तु कवर पुंसयति पुंस पुंस प्लस य प्लस टी दिवादिगणः वा भगिनी
दिवादिगणः न
या या विकरणप्रत्ययः अस्ति दिवादिगणः अस्ति
न
पुंस् प्लस्
या पुंस् प्लस् अया अया चुरादिगणः
दशमः चुरादिः अस्तु स्नाति
न प्लस् ति नो
विकरणप्रत्ययस्य लोपमस्ति पदादिगणः
समीचीनम् अनन्तरं जीव
जीवयति
जीवति
जीवति जीव प्लस् अ प्लस् ति अकार भवादिगणः
अविकरणप्रत्यय
प्रथम
उदादि
उपादिगणः अस्ति
प्रथमः द रूल् इस् दट् वाट् द दीर्घं प्रीवियस् थिङ्ग् इस् दीर्घं दट्स् वै
युव प्लस् एस् व
नाट् बिकास् आफ् दट् महोदय जस्ट् विकरणप्रत्यय इस्
प्रथम षष्टी द्वयोः अपि आ एव विकरणप्रत्ययः
अत्र गुणः अस्ति चेत् वयं जानीमः द्वादिगणः परन्तु नास्ति चेत् द्वादिगणः अपि भवितुम् अर्हति सुदादिगणः अपि भवितुम् अर्हति वयं वि जस्ट् हाव् टु सेट् इट्
ओके
देयर् इस् नो 100% डेफिनेट् वे महोदय अस्तु क्षिणोति
क्षि प्लस् नो प्लस् ति स्वादिगणः
क्षिणोति
विकरणप्रत्ययः
नो नो
नो योगति
पञ्चम स्वादिगणः
स्वादिः एकनिमिषः अस्तः अस्ति
अस्तु
इवन् दातुः ददाति
दित्तमस्ति तत्र सो जुहोत्यादिगणः
अत्र जुहोत्यादिः अस्तु अर्थः अस्ति एतद् वयं जानीमः अनन्तरं एकनिमिषः वन्
ध्वनयति
प्लस् ति
आया चुरादिगणः
एकदश चुरादिः
नाय्स् भगिनि ध्वनि
अस्तु एकांशः तत्र कणः अस्ति दर्शामः अस्तु अनन्तरं
मुञ्चति न विकरणप्रत्ययः अस्ति
न कुत्र अस्ति महोदय
न न न मुञ्चति
भवति वा भवादिगणः प्रथम
तुदादिगणः
तुदादिगणः वा
मुच् इति तत्र मु अपि चकारः तत्र क्रियापदं क्रियापदे अस्ति तत्र
nakara that nasalization sound from where it came
huh
ich plus some kind of sandhi amodya amchati I forgot
punah nasti
amchati
punah nasti
this is very tricky this is out of syllabus question
अस्तु तुदादिः
दिस् इस् तुदादि सिक्स् दिस् इस् क्वश्चन् मार्क् क्वश्चन् दिस् इस्
अस्तु अनन्तरं
कृणोति नोयन्ति स्वादिगणः वा
आम् प्र योगः नो नो योगाति अस्तः अस्ति गै धातुः गायति
गै प्लस् गै प्लस् Yeah.
भवति
गै प्लस् अ प्लस् ति
भवादिगणः
पुनः भवति
गै योग अ योग ति
दीयते फ्लयति डि प्लस् य प्लस् ति चकारः दिवादिगणः चतुर्थगणः भगिनि
एकनिमिषः
दीयते दीयति न दीयते दिवादि
किं उक्तवती दिवादिः किल
आम् डि योग्य योग्य
चतुर्थः गणः डि योगाय योगस्ति अस्तु
We did this, Bhagini.
Amba.
Liberty. The Dvitva.
Vibheti we did.
Okay, this is also same thing. Vibharti, Dvitva Masti. So, Juhoti Adi Ganaha.
Dekan Mishaha. धातुः जुहोत्यादि आम् योगः प्रतियः जुहोत्यादिः अर्थः
Vibharti is support, Vibheti is to fear. Oh my God. Yadvinnameva, how to remember.
Va, Vati.
Adari, Vanaha.
Ah.
भाति स्नाति माति ओण्डस् भाति
आं समीचीनम् अस्तु एकनिमिषः ऐ थिङ्क् वि डिड् अ गुड् लाट् आफ् वर्ब्स् वि स्टिल् हेव् सम् मोर् I actually only went through this much, so Ekanim Chaha.
No, you are going to bring that wonderful spinner.
No, no. We're not doing the spinner. But we are still doing the worksheet. Asso Ekanim Chaha. Putra Stetar. Asso. Bhati Iti Vankrita Vantaha. Asso. Si Sinoti. किं भवति
नो नो विकरणप्रत्यय अस्ति नो विकरणप्रत्यय कुत्र अस्ति स्वादिगणः पञ्चमगणः
भगिनी भगिनी अत्र स्थापयामः पुनर् नेक्स्ट् वीक् विल् डु भगिनी Let's try to memorize this. I am actually looking at the cheat sheet and doing it.
अस्तु अस्तु
दट् इस् ओके भगिनि बिकास् यु आर् नाट् गोयिङ्ग् टु गेट् इट् एव्रिथिङ्ग् इन् दि फस्ट् इन्स्टेन्स् सो अट् लीस्ट् वि विल् कीप् सेयिङ्ग् नो विकरणप्रत्यय पञ्चमगणः नो विकरणप्रत्यय पञ्चमगणः विल् गो इन् टु द हेड् स्वादिगणः
ओके अस्तु विल् डु जस्ट् फैव् मोर् विल् गेट् टु 50 एण्ड् देन् विल् स्टाप् अस्तु
ओके
जस्ट् फैव् I just like the number, so we'll just do 5 more and then we'll stop. Asto Sinoti, Asto Sthul, Vikram Shah. Sthulayati.
यकारम् अस्ति यकारम् अस्ति चेत् दिवादिगणः चतुर्थगणः स्थूल् नो अय अस्ति वा स्थूल् प्लस् अय प्लस् ते
अयविकरणप्रत्यय चेत् चुरादिगणः दशमगणः चुरादिगणः अस्ति most of them are easy bagini only that like munchati we don't know the sandhi we don't know the rule so that is like in total we can't crack such kind of dhatus but most of them are okay where there is guna where there is vriddhi you know we should be able to identify
yashamaha atrasti
स्थूलयते
अनन्तरं किमस्ति रुद् शुनक्ति रुद् शुनक्ति
शुद्ध प्लस न प्लस ती शुनती रुरादि गण वा
एक निमिष भगिनी
व्हाट इज दिस शुद्ध
शुनत शुद्ध
दिस इज वन ऑफ दोस ट्रिकी वन्स I think if it is tricky, it is Bhuadi only. I think we can ascertain that.
No, Bhuadi hi nasti. Rudhadi.
Don't tell Naad Karana Pratya asti. Rudhadi.
Nakara asti, Mahadya. Rudhadi gana.
Munchati also, that nasalization is there, but it is not this one.
Nasalization is there, but that is not Na Mahadya.
हा इद इत्र अत्रापि अण भवति न न भवति न इन् समटैम्स् यु गेट् न इन् समटैम्स् यु गेट् अण बट् दिस् इस् क्षुद् धातु इस् ता तदा न ओन्लि सो नेशनलैजेशन् इस् नाट् इवन् इन् द सेम् वर्ग आल्सो इट् इस् नाट् देर् सो दीस् आर् आल् मोर् काम्प्लिकेटेड् रूल्स्
I think we need two more. Three more. So, up till here. Okay. Pusht Pushyati.
Pushyati. Yakaram Bhavati. So, Divadi Ganaha.
यकारः अस्ति चेत् चतुर्थः गुणः
एकंशः
ओके ऐ गाट् ए लिङ्क् फार् रिमेम्बरिङ्ग् दट् या इस् दिवाति चतुर्थगणः चतुर्थी विभक्ति राम या कम्स् दट् वे वी केन् रिमेम्बर्
भगिनी ऐ थिङ्क् इट् इस् पुष् अय अस्ति वा
अय दश दश अय अय दश चुरादिगणः अस्ति
वै सर् अय
पृष्यति देर् इस् आल्सो हाफ् हाफ् ओन्लि नो नाट् पृषयति सो इट् इस् पृष्यति ओन्लि सो इट् इस् चतुर्थ ओन्लि
अत्र अर्थः अस्ति
दिवादि इस् यो चुरादि इस् अयो
अस्तु पृच्छति
वच् वक्ति पच् प्लस् ति वक्ति अदादिगणः वा
अदादिः अस्तु अनन्तरं करोति
क्रु प्लस् क्रु प्लस् ओ प्लस् ति करोति क्रु प्लस् ओ प्लस् ति वा
एकनिमिषः भगिनि प्लस्
ओ प्लस्
आम्
कनादिगणः
एकनिमिषः रे योगः तमः ततो अन्तिमः अस्ति
रच्
द्रुह्
द्रुह् द्रुह्यति
द्रुह्यति
इत्येव
किल याविकरणप्रत्ययः अस्ति दिवादिगणः अस्ति
एकनिमिषः द्रुह्यति दिवादिगणः समीचीनम्
Yes. Here he is to feel sad.
Hey. Astro.
Hey.
Oh.
Dukhyati.
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 Dukhyami. Dukhyami.
द्र द्रु द्रुः प्लस् य प्लस् ति य विकरणप्रत्यय दिवादिगणः फोर् करोति गुरु
अस्तु आम् अग्रिमसप्ताहे एतत् वयं पूरयामः अस्तु
आं भगिनि
अहम् एतत् अपि प्रेषयामि एतदपि प्रेषयामि अस्तु एकवारं पुनः एतत् पठन्तु अदृष्ट्वा वक्तुं प्रयत्नं कुर्वन्तु
प्रथमं
अस्तु अस्तु अस्तु
काल् आल् द 10 अस्तु रिकॉल आल्
जस्ट से द फर्स्ट 5 फर्स्ट 5
Boadi is second one is Diwali is
Diwali na Adadi
Adadi Adadi Nasti Juhotya Jyos Nasti Dhitvam then I think Diwali comes after that
yes Ramaya Chaturthaya Vikarana Pratyaya
Yeah, yeah, will come in that.
Mm.
Then, Panchama, what is Panchama?
Swadhi.
Swadhigana. Swadhigana is no.
Asto. Punaha ekavaram. Punaha ekavaram vadato.
Swadhi. Adadigana, nothing. Juhoti adigana. Dvitvam, nothing. Then Divadigana here, then Swadigana here. You, oh.
No,
Swadigana.
No.
No,
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 no. No, it's English. We say yeah, in English Swadigana. Like no. So,
yeah. Yes, no, no.
Aso Gopal Mode, Banvadato?
प्रथमगणः भुवादिगणः भुवादिगणः आविकरणप्रत्यय अस्ति द्वितीयगणः अदादिगणः अदादिगणः किमपि विकरणप्रत्यय नास्ति तृतीयगणः जुहोत्यादिगणः ज्योत्यादिगणः द्वित्वं भवति अण्ड् बै द्वित्वं वि मीन् बिभेति ददाति सेम् सौण्ड् विल् रिपीट् द्वित्वं भवति चतुर्थगणः दिवादिः या विकरणप्रत्यय अस्ति पञ्चमगणः नो विकरणप्रत्यय अस्ति पञ्चमगणः किं स्वादिगणः स्वादिष्टगणः ओके स्वादिगणः
स्वादि
सम् वे टु रिमेम्बर् इट् यु नीड् सम्
अनन्तरम् इदानीं षष्ठः गणः वयं जानीमः स्वादिगणः षष्टिगण षष्टमगणः वयं न इच्छामः किल तदर्थं वादिः सुदादिः सुदादिः षष्ठः अस्तु सुदादिः अस्ति वादिः वयं जानीमः तदर्थं तुदादिः वयं जानीमः इदानीं रुदादिः तत्र नकारः अस्ति तत्र अन् अतः पश्यन्तु अत्र अ न अकारः नकारः ओकारः नकारः अपि अकारः यकारः अत्र तुदादिः वयं जानीमः तस्य अनन्तरं नकारः अस्तु रुदा तुदादिः रुदादिः अस्तु तुदादिः अस्ति अ रुदादिः अस्ति न अ अपि न इदानीं तनादिः किञ्चित् नेक्स्ट् लेवल् तनादिः सारि तनादिः अस्ति ओ अ इति नो भवति क्रियादिः न इति न भवति इदानीं तुदादिः अ रुदादिः न तनादिः ओ क्रियादिः न तुदादिः रुदादिः तनादिः क्रियादिः स इति रुदादिः अस्ति तनादिः अस्ति तुदादिः रुदादिः तनादिः क्रियादिः चुरादिः अ न ओ न अय तुदादिः अ रुदादिः न तनादिः ओ क्रियादिः न चुरादिः अय इदानीं भवन्तः वदन्तु
तुदादिः रुदादिः न तनादिः
ओ
ओ चुरादिः त्रयादिः न एण्ड् चुरादिः अय
पुनः
तुदादिः अ रुदादिः न तनादिः नो क्रयादिः क्रयादिः अ
तनादिः
चुरादिः अय
न चुरादिः अय ओके अ न ओ न अय
Tudadi is A, same as Bhuadi Ganaha, first Gana.
Mm-hmm.
Then Churadi, Dashama Ganaha is Aya. So these mm-hmm. both are easy, no mm-hmm. doubt. Tudadi is A, Churadi is Aya. Now we are left with 7, 8, 9. 9 is Krayadi, which is Na. Krayadi is Na. Next is Rudadi. Rudadi is Na. And what is the Ashtamagana? Ashtamagana is Anadi Ganaha, Vo Asti.
Anadi Om. Anadi Omkaram. Okay.
There must be some shloka or something for this Bhagini. Is there a shloka?
I don't think so, Mohode. You can make one. I'll see if there is one. But if there is not, we can make our own. That is all.
We have to make one now, yeah.
Tatra Pratamaha Asti Bhuadihi, Dvitiyaha Asti Adadihi, Dvitiyaha Dvitvam Asti Juhotyadihi, Chaturtaha Asti Vibaktihi Ramaya Tatra Divadihi Asti.
Divadihi.
Swadhi.
Ya Vikarana Prasti Asti.
Swadhi Ganaha Asti No.
No.
Udadi Ganaha Vayamna Ichamaha Vikarana Prati Asti रुदादिगणः विकर्णप्रत्ययः अस्ति न तनादिगणः इति श्लोकः कुर्मः
सो इफ् यु सी इट् इस् आल् अ य न नो न ओन्लि दीस् आर् देर् आय न दट्स् इट् It is either A, A bhi na, na or wo only, no, no. Or it is missing, or dvitvam. Mm-hmm. Missing and dvitvam are two special cases.
Ashto. काशीनगरस्य अहं गृहपाठः दत्तवती राधा भगिनी एव कृतवती
ऐ हेव् टु डू दट् येट् ऐ हेव् टु गेट् मेटीरियल् फार् इट्
महोदय मटीरियल् किम् अस्ति महोदय किं भवान् जानाति भवान् न जानाति चेत् महोदय भवान् न जानाति इति चेत् अहं काशीनगरस्य किमपि न जानामि अहं तस्य विषये ज्ञातुम् इच्छामि इति वदतु This is not supposed to be a research project, Mohadya. It's basically what you do know or do not know. Just it's topic just so that okay. we talk in Sanskritam. That's the point.
Ayatnam karotu, Mahadya.
But mama putraha pratidinam sardhashadvadane अगस्त्य गुरुकुलम् इति आन्लैन् पाठशाला एकम् अस्ति तत् पाठशालायां सः संस्कृतं वाट् इस् लर्निङ्ग् हि इस् लर्निङ्ग् सो अहमपि मम पुत्रेण सह प्रतिदिनं संस्कृतकक्ष्यायां उत्तिष्ठामि न तिष्ठामि नाट् उत्तिष्ठामि तिष्ठामि सः संस्कृतपाठे सोमवासरे अमरकोशः मङ्गलवासरे मङ्गलवासरे संस्कृतभाषा बुधवासरे गणितं बुधन वेडस्डे इस् वाट् सोम मङ्गल बुध थर्स्डे इस् गुरुवासरे सूत्रपाठं वाट् इस् दट् कण्ठस्थीकरणं सर्वे छात्राः कण्ठस्थीकरणं कुर्वन्ति अद्य तृतीय सर्गः ऐ डोण्ट् नो चाप्टर् तर्ड् चाप्टर् तृतीयगणः तृतीयसर्गः
तृतीयभागः
तृतीयभागे अभि ऐ मीन् अद्य तृतीय भागे अहं पठामि शुक्रवासरे इतिहासम् अथवा किञ्चित् कथायां पठामि
गणितं संस्कृतं गणितं करोति वा किं
संस्कृतं गणितं गुणनं मीन्स् मल्टिप्लिकेशन् अडिशन् मल्टिप्लिकेशन् अण्ड् आल् वि डु अण्ड् टेक् अवे दे हेव् ए डिफरेण्ट् मेथड् आफ् लैक् वेदिक् मेथ्स् यु नो इट् इस् स्लैट्लि
डिफरेण्ट्
इट् इस् वेरि बहु इण्ट्रेस्टिङ्ग् वाट् वि से
संस्कृतभाषे एव करोति वा
टीचर् संस्कृतभाषामाध्यमेव सा उक्तवती छात्राः सम्टैम्स् दि अण्डर्स्टाण्ड् सम्टैम्स् अण्ड् बट् संस्कृतकक्षायाम् अहं संस्कृतं सम्यक् वदामि
समीचीनम्
This one is all very, of course, this one is more freestyle, so it is this one, but yadi adhyapika kimapi prashnam pruchyati chet, aham samskritam eva uttaram dadami.
Samichin. Agrima saptahe. वयं एतत् कुर्मः अपि तत्र कर्तुं शक्नुमः चेत् एकं कथां कृत्वा गीतासोपानं पुनः गच्छामः अस्तु
भगिनि एकः प्रश्नः अस्ति गीतासोपानपुस्तके कुत्र अहं स्थापयामः अहं न जानामि
अहमपि
शेर्ड् द आन्लैन् डाक्युमेण्ट् न भगिनि
आं महोदय नो सो ऐ डोण्ट् नो वेर् वि हर् स्टाप्ड्
एकनिमिषः इदानीं पुस्तकम् अत्र नास्ति भगिनि अहं वदामि अस्तु अहं वदामि
वाट्साप् मध्ये स्थापयतु भगिनि
आम् आं स्थापयामि भगिनि अपि वयम् एतत् कृत्वा किञ्चित् विभक्ति अभ्यासं कुर्मः अहं चिन्तयामि एतत् सर्वं विस्मृतवन्तः इति, तदर्थं किञ्चित् कृत्वा पुनः गीतासोपनं गच्छामः. अस्तु अस्तु, अद्य अत्र स्थगयामः वा? अस्तु
अस्तु.
Because it is not aam ya na, so
astu etat aham preshayami api etat api etat astu sarvam aham preshayami bhavanta kimchit drishtva agachantu astu
nutana vishayam dadatu अहं पुनरपि पुनः प्रयत्नं कुर्मः.
अत्र सी भगिनि, वि ओन्ली डिड् अप् टिल् लैक् हियर् अस्तु.
एतत् न स्पीच्.
आमाम् एतत् अहं ददामि.
नूतनविषये किञ्चित् ददातु.
अहं ददामि. अस्तु अस्तु, धन्यवादः, नमस्कारः.
धन्यवादः, नमस्कारः.
वेरि गुड् क्लास् भगिनी, थेङ्क् यू सो मच्.
धन्यवादः.
धन्यवादः.
धन्यवादः.